ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। श्रीशुक उवाच, इन्द्रमेवं समादिश्य भगवान् विश्वभावनः पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरिः। तथापि याचितो देवैर्ऋषिराथर्वणो महान् मोदमान उवाचेदं प्रहसन्निव भारत, अपि वृन्दारका यूयं न जानीथ शरीरिणाम्। संस्थायां यस्त्वभिद्रोः दुःसहश्चेतनापहः, जिजीविषूणां जीवानामात्मा प्रेष्ठ इहेप्सितः। क उत्सहेत तं दातुं भिक्षमाणाय विष्णवे। देवा ऊचुः, किं नु तद्दुश्चजं ब्रह्मन् पुंसां भूतानुकम्पिनां भवद्विधानां महतां पुण्यश्लोकेड्यकर्मणां। ननु स्वार्थपरो लोको न वेदपरसङ्कटं, यदि वेदन याचेत नेति नाह यदीश्वरः। ऋषिरुवाच, धर्मं वः श्रोतु कामेन यूयं मे प्रत्युदाहरिताः। एष वः प्रियमात्मानं त्यजन्तं सन्त्यजाम्यहम्। यो ध्रुवेणात्मना नाथ न धर्मं न यशः पुमान्, ईहेतभूतदयया सशोच्यः स्थावरैरपि। एतावानव्ययो धर्मः पुण्यश्लोकैरुपासितः, यो भूतशोकहर्षाभ्यामात्मा शोचति हृष्यति। अहो दैन्यमहो कष्टं पारक्यैक्षणभङ्गुरैः, यन्नोपकुर्यादस्वार्थैर्मर्त्यः स्वज्ञातिविग्रहैः। श्रीशुक उवाच, एवं कृतव्यवसितो दद्यङ्गाथर्वणस्तनुं परे भगवति ब्रह्मणि आत्मानं सन्नयञ्जहौ। यताक्षासुमनो बुद्धिस्तत्त्वदृक् ध्वस्तबन्धनः, आस्थितः परमं योगं न देहं बुबुधे गतम्। अथेन्द्रो वज्रमुद्यम्य निर्मितं विश्वकर्मणा, मुने शुक्तिभिरुत्सिक्तो भगवत्तेजसान्वितः। वृतो देवगणैः सर्वैर्गजेन्द्रोपर्यशोभत, स्तूयमानो मुनिगणैस्त्रैलोक्यं हर्षयन्निव। वृत्रमभ्यद्रवच्छेतुमसुरानीकयूथपैः, पर्यस्तमोजसा राजन् क्रुद्धो रुद्र इवान्तकम्। ततःसुराणामसुरैरणः परमदारुणः, त्रेतामुखे नर्मदायामभवत् प्रथमे युगे। रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवन्निपिः, मरुद्भिर्रिभुभिः साध्यैर्विश्वे देवैर्मरुत्पतिम्। दृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया, नामृष्यन्न सुरा राजन् मृधे वृत्रपुरःसराः। नमुचिः शम्बरो नर्वा द्विमूर्धा ऋषभोऽम्बरः, हयग्रीवः शङ्कुशिरा विप्रचित्तिरयो मुखः। पुलोमा वृषपर्वा च प्रहेतिर्हेतिरुत्कलः, दैतेया दानवा यक्षा रक्षांसि च सहस्रशः। सुमालिमालिप्रमुखाः कार्तस्वरपरिच्छदाः, प्रतिषिध्येन्द्रसेनाग्रम् मृत्योरपि दुरासदम्। अभ्यर्दयन्न सम्भ्रान्ताः सिंहनादेन दुर्मदाः, गदाभिः परिघैर्बाणैः प्रासमुद्गरतोमरैः, शूलैः परश्वधैः खड्गैः शतग्नीभिर्भुषुण्डिभिः। सर्वतो वाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान्, न ते दृश्यन्त सञ्छन्नाः शरजालैः समन्ततः। पुङ्खानुपुङ्खपतितैर्ज्योतींषीव नभोघनैः, न ते शस्त्रास्त्रवर्षौघा यासेतुः सुरसैनिकान्। छिन्नासिद्धपथे देवैर्लघुहस्तैः सहस्रधा, अथ क्षीणास्त्रशस्त्रौघा गिरिशृङ्गद्रुमोपलैः। अभ्यवर्षन् सुरबलं चिच्छिदुस्तांश्च पूर्ववत्, तानक्षतान् स्वस्ति मतो निशाम्य शस्त्रास्त्रपूगैरथवृत्रनाथाः। द्रुमैर्दृषद्भिर्विविधादृशृङ्गैरविक्षतांस्तत्र सुरेन्द्रसैनिकान्। सर्वे प्रयासा अभवन् विमोघा कृता कृता देवगणेषु दैत्यैः। कृष्णानुकूलेषु यथा महत्सु क्षुद्रैः प्रयुक्ता ऋषतीरूक्षवाचः, ते स्वप्रयासं वितथं निरीक्ष्य हरावभक्ता हतयुद्धदर्पाः। पलायनायाजि मुखे विसृज्य पतिं मनस्ते दधुरात्तसाराः, वृत्रोऽसुरांस्ताननुगान्मनस्वी प्रधावत प्रेक्ष्य बभाष एतत्। पलायितं प्रेक्ष्य बलं च भग्नं भयेन तीव्रेण विहस्य वीरः। कालोपपन्नां रुचिरां मनस्विनामुवाच वाचं पुरुषप्रवीरः, हे विप्रचित्ते नमुचे पुलोमन् मया नर्वञ्छम्बर मे शृणुध्वम्। जातस्य मृत्युर्ध्रुव एष सर्वतः प्रतिक्रिया यस्य न चेह क्लृप्ता, लोको यशश्चाथ ततो यदीयमुं को नाम मृत्युम् न वृणीत युक्तम् द्वौ सम्मता विह मृत्यु दुरापौ यद्ब्रह्म सन्धारण याजितासुः कलेवरम् योगरतो विजह्यात् यदग्रणीर्वीरशये निवृत्तः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनम् नाम दशमोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।